पंचम मंत्र का शांकर भाष्य। तदात्म तत्त्वम यत प्रकृतम तदेजति चलति देव न नैजति स्वतो नैव चलति स्वतोर्चलमेव सत चलति वेत्यर्थः। किंच तद्दूरे वर्षकोटिशतैरप्यादि विषाम प्राप्यत्वाद दूरम इव तद उ अन्तिके इति छेदः तद्वन्तिके समीप्यन्त्यन्तमेव विदुषामात्मत्वान् केवलं दूरन्तिके च तदन्तरभ्यन्तरैस्य सर्वस्य य आत्मा सर्वान्तरः। इति श्रुतेः अस्य सर्वस्य जगतो नाम रूपक्रियात्मकस्य तदुपि सर्वस्य अस्य बाह्यतो व्यापकत्वादाकाशनिरतिशयसूक्ष्मत्वाद् अन्तःप्रज्ञानघन इति च शासनान्निरन्तरं च।